सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः।
धन्यवादः भगिनि। सर्वेभ्यो नमः। अस्माकं प्रवर्तमानः विषयः अस्ति अव्ययानि इति। तस्मिन् विषये वयं कथां पठितवन्तः, तदनन्तरं केचन कानिचन अव्ययानि स्वीकृत्य प्रयोगान् अपि दृष्टवन्तः, यदा तदा, यथा तथा, अपि इति, यत्र तत्र, तद् सर्वं गतवर्गे अपि दृष्टवन्तः। इदानीम् अग्रे भवति तत्र किन्तु, निश्चयेन, प्रायशः, खलु, अपेक्षया इति अद्यतनविषयः। तस्य पूर्वं तत्र पेज् 162 मध्ये तत्र श्लोकद्वयम् आसीत्, भगवद्गीतायाः श्लोकद्वयं। तद् एकवारं श्लोकद्वयम् एकवारं परिशील्य अग्रे गच्छामः। अतः तत्र गीताञ्जलि भगिनी, नमस्कारः भगिनि।
नमस्ते महोदय, क्षम्यता महोदय।
हा, चिन्ता मास्तु भगिनि, चिन्ता मास्तु। तत्र रघुवीरानन्दमहोदय, एकवारं तत्र श्लोकद्वयं पठति वा महोदय, पेज् 162 मध्ये।
महोदय,
पेज् 162
अनन्तरं महोदय,
अस्तु 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 अस्तु, चिन्ता मास्तु, अस्तु 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 तर्हि तत्र अस्तु। वेदा भगिनी पठति वा तत्र प्रथमश्लोकम्?
आम् महोदय। यत्रोपमर यत्र उपरमते यत्र उपरमते यत्रोपरमते चित्तं निरुद्धं योगसेवया यत्र चैवात्मनात्मानं पश्यन् आत्मनि तुष्यति।
समीचीनं भगिनि, अस्तु। तत्र किञ्चित्
यत्र यत्र उपरमते यत्र उपरमते चित्तं यत्र चित्तं माने मनस् मनः उपरमते शान्त अस्ति या शान्तः
तत्र उपरमते तत्र प्रथमते एकं तत्र वाक्यस्य अर्थस्य पूर्वं वाक्यार्थपूर्वं तत्र एकमेकं पश्यामः। तत्र क्रियापदं किम् अस्ति सर्वं पश्यामः। तत्र क्रियापदानि कानि, कति क्रियापदानि सन्ति?
यत्र चैव च
क्रियापदं कुत्र अस्ति?
पश्यन्
अस्मि, अस्तु,
पश्यन् लोट्लकार, पश्यन् आत्मनि तुष्यति तुष्यति।
हा, अस्तु। ततः उपरमते इति एकमस्ति, तदनन्तरं तुष्यति इति, उपरमते कीदृश क्रियापदं, परस्मैपदि वा आत्मनेपदि वा?
उपरमते आत्मनेपदि,
आत्मनेपदि। तत्र उपसर्गः अस्ति वा? उपसर्गः, उप एव उपसर्गः, अस्तु, समीचीनम्। उपयोगः रमते, अस्तु, समीचीनम्। अपि अन्यत् अस्ति तुष्यति, तत्तु परस्मैपदि धातु, अस्तु। पश्यन् शत्रन्तरूपम् अस्ति, तदपि क्रियापदं भवति, सत्यम्। अतः तत्र द्वितीयवाक्ये तत्र पश्यन् इति पश्यति, तस्मिन्नेव समये तुष्यति इति, खलु, तत्र क्रियाद्वयं भवति। समीचीनं भगिनि, हा, समीचीनम्। अतः पश्यन् अपि क्रियापदं, किन्तु शत्रन्तरूपम् अस्ति, अपि तुष्यति इति अपि अस्ति, समीचीनं भगिनि। हा, अतः तत्र तदनन्तरं तत्र अत्र तु अस्माकं विषयः अस्ति यत्र तत्र इति। अत्र तु किं, यत्र यत्र एव दत्तमस्ति, किन्तु तत्र नास्ति, खलु, यत्र यत्र एव अस्ति। तत्र इति नास्ति तत्र
यत्र पर्वतशिखरमिदं यत्र चैव तत्र नास्ति
नास्ति अस्तु तदनन्तरं किं तत्र यत्र उपरमते चित्तं निरुद्धं योगसेवया यत्र
तत्र विना तत्र विनापि यत्र उपयुज्यं शक्यते वा
किं किं न न तत्र
विना
हा 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 अत्र भगवद्गीतायां तादृशं वाक्यं स्वीकृतमस्ति खलु अतः किन्तु ते एतत्तु एतत्तु साधु एव अस्ति यद् भगवद्गीतायाम् अस्ति तत् सर्वं साधु एव तत्र वयं किं वक्तुं शक्नुमः अतः किन्तु तादृशः प्रयोगः यत्र यत्र एतदस्ति तदपि तद् उत्तररूपेण भवति खलु तत्र एतत् कुञ्चिका कुत्र अस्ति यत्र दीपः अस्ति इति तादृशः अपि लोके भवति खलु
अस्तु अस्तु महोदय
किन्तु साधारणतया यत्र तत्र इति एव तत्र द्वयस्य द्वयमपि साधारणतया भवति अस्तु भगिनि अत्र उपरमते इति अस्ति यत्र योगः उपरमते चित्तं निरुद्धं योगसेव्या तत्र तस्मिन् वाक्ये कर्तृपदं किम्
यत्र उपरमते चित्तं
समीचीनं योगसेवया तृतीयविभक्ति अतः तत् कर्तृपदं वा न अस्तु तदनन्तरं निरुद्धम् इति निरुद्धं किम् अस्ति
निरुद्धम् अर्थं किं महोदय निरुद्धं निरुद्धं
अन्य कोऽपि वक्तुम् इच्छन्ति वा तत्र
महोदय
अस्तु अतः
नि उपसर्ग
अर्थं
निरुद्धं तत्र रिस्ट्रेन्ड् इति अस्ति तत्र चित्रस्य निग्रहणं निग्रहणं कृत्वा ग्रहणं निग्रहणं कृत्वा कण्ट्रोल् निग्रहणं कृत्वा केन मार्गेण
योगसेवे निरुद्धं किं किं वक् महोदय
विशेषणं भवति निरुद्धं भवति चित्तं पदस्य विशेषणं विशेषणं भवति योगसेवया इति तत्तु तृतीयविभक्ति माध्यमम् अस्ति योगसेवया अग्रे अग्रे एषः एव विषयः तृतीया विभक्तिः इति तत्र माध्यमम् इति एकः प्रयोगः भावः इति अन्यः प्रयोगः अत्र माध्यमम् इति योगसेवया इति समीचीनं भगिनि अस्तु अन्य अग्रे तत्र उषा भगिनी अग्रे वदति वा तत्र इदानीम् एतावत् वयं किं दृष्टवन्तः यत्र निरुद्धं चित्तं योगसेवया उपरमते इति अन्वयक्रमः अन्वयक्रमः इत्युक्ते तत्र यत्र तदनन्तरं कर्तृपदं तदनन्तर अन्ते क्रियापदम् उपरमते इति क्रियापदं यत्र निरुद्धं चित्तं योगसेवया उपरमते 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 एतावत् अग्रे अग्रे किम् अस्ति भगिनि
यत्र चैवात्मनात्मानं पश्यन् आत्मनि तुष्यति तुष्यति क्रियापदम् अस्ति पश्यन् तत्र प्रत्ययः अस्ति यत्र चैवात्मनः
तत्र यत्र च एव तत्र अतः तत्र च एव इति एतत् सर्वम् अव्ययं खलु
आं महोदय
च एव इति अपि तत् सर्वम् अव्ययम् अत्र च एव च एव
च एव
आत्मना
आत्मना
आत्मानम्
आत्मानम्
आत्मना आत्मानं पश्यन्
पश्यन्
आत्मनि तुष्यति आत्मनि तुष्यति
तुष्यति सन्तुष्टं
सुखम् अनुभवति इति आनन्दस्य विषयः अत्र कीदृश आनन्दस्य विषयः एतत् साधारण आनन्दस्य विषयः वा यदा वयं पयोहिमं खादामः ततः आनन्दः भवति तादृशः आनन्दः वा अत्र एतत्तु अन्यविध आनन्दः खलु अतः तत्र कीदृशः आनन्दः इति तत्र चित्तं निरुद्धम् इत्युक्ते तत्र लोकात् बहिः गतम् अस्ति तत्र लोकस्य सम्बन्धः किमपि नास्ति तत्र तादृशचित्तः विषयभूतिचित्तः न अन्तर्गतः चित्तः उपरमते तद् स्थगति तत्र तत् किमपि न बहिर्लोकस्य ज्ञानमेव तस्य न भवति तस्मिन् समये तादृशी स्थितौ किं भवति तादृशौ स्थितौ किं भवति यत्र च एव आत्मना आत्मानं पश्यन् आत्मानम् पश्यन् इति अस्ति आत्मानम् इति विभक्ति का तत्र
आत्मानं द्वितीयविभक्ति
हा आत्मन् इति पदम् एतावत् वयं न दृष्टवन्तः किन्तु बहु शीघ्रं वयं गीतासोपनं द्वितीयभागं पश्यामः तत्र नकारान्तपदं भवति आत्मन् इति आत्मा आत्मानौ आत्मानः आत्मानम् इति द्वितीयविभक्ति एकवचनरूपम् आत्मना इति तृतीयविभक्ति एकवचनरूपम् आत्मनि इति सप्तमी विभक्तिरूपम् एतत् कथं ज्ञातुम् एतत् कथं स्मर्तुं शक्नुमः इत्युक्ते तत्र भवान् शब्दं सर्वे जानन्ति खलु अत्र तत्र भवान् शब्दस्य द्वितीया विभक्तिरूपं किम् अस्ति एकवचने भवन्तं भवन्तम् इति अस्ति तृतीया विभक्ति किं रूपम् एकवचने किम् अस्ति हा तादृश आत्मना इति दीर्घ आकारः भवति तदनन्तरं सप्तमी आत्मन् शब्दं भिन्नं केवलं तत्र आकारः अन्ते अस्ति इति तावदेव समानपदम् इति न वक्तुम् इच्छामि आत्मना इति अस्ति तदनन्तरं भवत् शब्दस्य सप्तमीविभक्ति एकवचनरूपं किम् अस्ति
भवति
हा आत्मनि इति आत्मना आत्मानम् आत्मनि अपि तत्र आत्मना आत्मानम् आत्मनि इति अतः तृतीया द्वितीया सप्तमी इति आत्मना आत्मानं पश्यन् आत्मनि तुष्यति अत्र तत्र कर्तृपदं किम् अस्ति अस्मिन् श्लोके
यत्र चैवात्म कर्तृपदम्
प्रायशः तदेव अस्ति तत्र चित्तं तु निरुद्धम् इति वक्तम् अतः तत्र चित्तम् अथवा आत्मा यद् तदनन्तरं भवति तदेव तेन एव आत्मानं पश्यन् आत्मनि तुष्यति इति तत्र योगस्थितिः समाधिः इति तादृश अस्ति तादृशी स्थितिः तस्य वर्णनम् अस्ति आत्मना इति तृतीयविभक्ति आत्मना इति तृतीयविभक्ति आत्मानम् इति द्वितीयविभक्ति आत्मना एव आत्मनपि पश्यन् अस्ति अपि आत्मनि तुष्यति आत्मनि सन्तोषः अनुभवति इति
अनुभवति
अतः तत्र समाधिस्थिति स्थितेः वर्णनम् इति मन्ये अस्तु
पश्यन् अपि तुष्यति द्वे कर्तृ क्रियापदं
सत्यं भगिनि हा अतः तत्र युगल द्वयमपि एकस्मिन् समये भवति तत्र अतः एषा क्रिया पश्य दर्शनक्रिया अपि भवति तत्र सन्तोष तत्र तुष्यति तद् सा क्रियापदं तदपि भवति पश्यति अपि सा क्रिया अपि भवति एकस्मिन् समये अतः दृष्ट्वा तुष्यति इति न पश्यन् तुष्यति पश्यन् अस्ति तुष्यति अपि एकस्मिन् समये अतः तत्र एकं स्थगितम् इति न तदनन्तरम् एकस्य अनन्तरम् अन्यत् इति न द्वयमपि एकस्मिन् समये भवति. अस्तु, समीचीनम्. अग्रे गच्छामः. तत्र वंशीसुत भगिनी नमस्कारः. अग्रे तत्र नरेश् महोदय श्लोकं पठति वा महोदय?
सुखमात्यन्तिकं यत्तत् बुद्धिग्राह्यमतीन्द्रियं वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः.
स्थिरः चलति तत्त्वतः. तत्र किं किम् अस्ति? सुखं
सुखम्
आत्यान्तिकम् आत्यान्तिकं
यत्तत्.
इदानीम् अत्र यत् तत् इति रूपम् अस्ति तत्र.
यत्तत् बुद्धि ग्राह्यम् इति
अतीन्द्रियम् अतीन्द्रियम् इति इन्द्रियं न अतीन्द्रियम्
अति इन्द्रियम्
अतीन्द्रियं
वेत्ति यत्र न च एव अयं स्थितः चलति तत्
तत्त्वतः
तत्त्वतः.
तत्त्वं तत्त्वतः. तत्र तत्त्वतः इति साधारणतया तत्र पञ्चमी रूपम् इति स्वीकुर्मः खलु. नगरतः तत्त्वं नगरं नगरतः तत्त्वं तत्त्वतः इति. अस्तु, तत्र अव्ययं किं किम् अस्ति तत्र?
क्रियापदं
न अव्ययम् अव्ययम् अव्ययं किं किम् अस्ति? यत् तत् अस्ति. तदनन्तरं यत्र अस्ति
यत्र अस्ति तत्र तु नास्ति.
तत्र नास्ति. तदनन्तरं न इति अस्ति, छ इति अस्ति, एव इति अस्ति,
अयम् अस्ति.
अयम् अयं तु अव्ययं नास्ति. अयं तु एषः इति अर्थः खलु. तत्र इदानीं तत्र
बुद्धिग्राह्यम्
तत्र अतीन्द्रियम् अतीन्द्रियम् इति समस्तपदम् अस्ति. बुद्धिग्राह्यम् इति तत्तु अव्ययं नास्ति. बुद्धिग्राह्यम् इति बुद्धिग्राह्यम् अतीन्द्रियं तत्र. अस्तु, तत्र किं किं पश्यामः? तत्र सुखम् इति प्रथमतया अस्ति. तत्र सुखं, तदनन्तरं द्वितीयपदं किम् अस्ति? आत्यान्तिकम् इति. आत्यान्तिकम् इति. अस्तु, तत्र आत्यान्तिकं किम् अस्ति इति पश्यामः. अन्य कोऽपि वदति वा इति? तत्र लक्ष्मी भगिनी किमपि वक्तुम् इच्छति वा अत्र आत्यान्तिकम् इत्युक्ते? अस्तु, अन्य कोऽपि वक्तुम् इच्छन्ति वा? शोभा भगिनी.
अत्यन्त अत्यन्त इति पदस्य रूपं महोदय.
आत्यन्तिकम्
आत्यन्तिकम् अहं दृष्टवती अधुना. अनन्तम् इति अर्थे
अनन्तम् इति अर्थः. अनन्तं सुखम् इति. अनन्तं सुखं यस्य अन्तः नास्ति. सुखम् अनन्तम् अनन्तं सुखं यत् तत्. तदनन्तरं भवति बुद्धिग्राह्यम् इति. बुद्धिग्राह्यम् इत्युक्ते बुद्धिः अस्ति. बुद्धिः इति पदं कीदृशपदं? बुद्धिः
स्त्रीलिङ्गपदम् अस्ति महोदय.
स्त्रीलिङ्गपदम् मतीशब्दवत्. अस्तु, तत्र यदि तत्र बुद्धिः अस्ति तया ग्राह्यम् इति वक्तुमिच्छामश्चेत् तत्र बुद्धि इति पदस्य तृतीयविभक्तिरूपं किं भवति?
बुद्ध्या ग्राह्यम्.
बुद्ध्या ग्राह्यम्. बुद्ध्या ग्राह्यं किं? सुखं. यत् सुखम् अनन्तं सुखं तत् बुद्ध्या ग्राह्यम् अपि. तदनन्तरम् अतीन्द्रियम्। इन्द्रियम् इत्युक्ते किम्? इन्द्रियाणि,
इन्द्रियाणि,
अतीन्द्रियम्। अतीन्द्रियम् इत्युक्ते इन्द्रियाणि यानि सन्ति तेषाम् उपरि अस्ति,
उपरि,
हा बियाण्ड् इति, तत्र अगोचरम् इति वदामः खलु, तादृशः तत्र इन्द्रियैः न ग्राह्यम्। एतत् सुखम् इन्द्रियैः न ग्राह्यम्, किन्तु बुद्ध्या ग्राह्यम्। एतत् अनन्तं सुखम्। तत्र रघुवीरानन्दमहोदय यदि किमपि वक्तुम् इच्छति चेत् वदतु महोदय। एतावत् समीचीनमस्ति वा?
समीचीनमस्ति महोदय।
अस्तु, किन्तु यद् किमपि वक्तुम् इच्छति चेत् निश्चयेन वदतु। अस्तु, तदनन्तरं वेत्ति यत्र। वेत्ति इत्युक्ते शुभभगिनी, वेत्ति इत्युक्ते
वेत्ति इत्युक्ते जानाति महोदय,
जानाति, जानाति,
जानाति, यत्र,
यत्र,
यत्र, न, न, च एव च अयम्
एव अयम्। इदानीं तत्र अयम् इति आगतमस्ति। अयम् इति इत्युक्ते एषः। इदानीम् एषः इत्युक्ते इति कर्तृपदमस्ति, प्रथमविभक्तिरूपमस्ति खलु,
खलु,
एषः अयम्। अयं वेत्ति, अयं वेत्ति, अयं किं वेत्ति? अयम् एतादृशसुखं वेत्ति, आत्यन्तिकं सुखं, यत्
कीदृश
आत्यन्तिकं सुखं? बुद्धि, बुद्धिग्राह्यम्, अतीन्द्रियं, सत्यं, वदतु भगिनि।
आत्यन्तिकं सुखं यत् बुद्ध्या एव ग्राह्यम् अस्ति, इन्द्रियाणाम् उपरि अस्ति, तेन न ग्रहीतुं,
तैः न ग्राह्यम्, अथवा इन्द्रियाणि यानि सन्ति तानि एतत् सुखं न गृह्णन्ति इति। एष अयं स्थिरः, स्थिरश्चलति तत्त्वतः, तत्रैव तिष्ठति सः। यः एतादृशसुखं जानाति सः तत्रैव तिष्ठति, तत्र स्थिरः भवति तत्त्वतः। तत्त्वम् इत्युक्ते सत्यं, सत्यम् इत्युक्ते ब्रह्मज्ञानम् इति मन्ये, तत्रैव तिष्ठति। ततः तत्र समाधिस्थितिः इति तस्य एव अत्र यत् पूर्वस्मिन् श्लोके आसीत् विवरणं, तदेव अत्र अपि अस्ति इति मन्ये। ततः यः समाधिस्थितौ गच्छति, ततः सः पुनः तत्रैव स्थिरतया भवति इति मन्ये। तत्त्वतः इत्युक्ते तत्त्वम् इत्युक्ते सत्यम् इति मन्ये। तस्य उपरि तत्र अहं तु किमपि न वक्तुं शक्नोमि। तत्र अन्य कोऽपि तत्र गृहपाठः आसीत् एतस्य श्लोकद्वयस्य परिशीलनं कृत्वा किञ्चित् अवगत्वा आगच्छन्तु इति। वदतु भगिनि।
एकम् अर्थं दत्तमस्ति महोदय, स्वरूपतः इति अपि दत्तं, तत्त्वतः इत्युक्ते स्वरूपतः
इति अपि अस्ति वा? अस्तु भगिनि, अस्तु। किन्तु तत्र अर्थः किं भवति तत्र इत्युक्ते श्लोकस्य अर्थः, अर्थस्य अर्थः कीदृशः भवति तदा? स्वरूपः इत्युक्ते
आत्मनः स्वरूपात् इति तत्र अहं पठामि। यत्र च अवस्थाविशेषे तस्मिन् सुखे स्थितः आत्मनः स्वरूपात् न चलति इति दत्तं महोदय।
ओ अस्तु, अस्तु, आत्मनः स्वरूपात् न चलति, अस्तु। तत्र तत्त्वम् इति सत्यम् अपि अस्ति, तत्र प्रिन्सिपल् इति अपि अस्ति, स्वरूपः, अस्तु, धन्यवादः भगिनी। अस्तु, अन्य कोऽपि वक्तुम् इच्छन्ति वा? अत्र वक्तुमिच्छति वा रघुवीरानन्दमहोदय किमपि वक्तुम् इच्छति वा अत्र?
न महोदय, समीचीनमिति भाति.
अस्तु, किन्तु एकवारं तत् पठति वा महोदय, तत्र श्लोकद्वयं.
महोदय,
हा, धन्यवादः.
क्षम्यतां महोदय, एकनिमिषं. महोदय,
162
यत्रोपरमते चित्तं निरुद्धं योगसेवया यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति सुखमात्यन्तिकं यत्तत् बुद्धिग्राह्यमतीन्द्रियं वेत्ति यत्र न चैवायं पितश्चलति तत्त्वतः.
धन्यवादः महोदय. अस्तु अस्तु, धन्यवादः महोदय. अतः तत्र इदानीं अत्र अस्माभिः किं प्राप्तम् इत्युक्ते केवलम् आस्वादः, श्लोकस्य आस्वादः. तत्र बहु श्लोके बहु किमपि अस्ति, किन्तु तत्र व्याकरणदृष्ट्या अपि बहु किमपि अस्ति, तदनन्तरं शास्त्रदृष्ट्या अपि बहु किमपि अस्ति, किन्तु व्याकरणदृष्ट्या अपि तत्र समासः इति तत् तस्य ज्ञानस्य अनन्तरं किञ्चित् अधिकमपि वक्तुं शक्नुमः. तत्र बुद्धिग्राह्यम् इति, बुद्ध्या ग्राह्यम् इति तद् समासविषयः भवति, अपि अतीन्द्रियम् इति तदपि समासस्य विषयः भवति. इन्द्रियस्य विषयः नास्ति, अतीन्द्रियम् इत्युक्ते अति अपि नास्ति, इन्द्रियमपि नास्ति, किन्तु यत् अन्यत् पदमस्ति इति. अतः तत्र अद्य केवलं तत्र श्लोकस्य आस्वादः प्राप्तः अस्ति अस्माभिः, तावदेव. अस्तु, तर्हि अग्रे गच्छामः. इदानीं तत्र अस्माकं विषयः अस्ति किन्तु निश्चयेन प्रायशः इति, तादृशानि अव्ययानि. अस्तु, अग्रे तत्र ललिता भगिनी अग्रे पठति वा, तत्र सम्भाषणमस्ति, तत्र भवती कृष्णः भवतु, तत्र गीताञ्जलि भगिनी अर्जुनः भवति वा.
हा, पठति महोदय.
पठामि पठामि
पठामि. कृष्णः एतत् सम्भाषणम् उच्चैः पठत. तत्र पूर्वं किन्तु निश्चयेन प्रायशः खलु अपेक्षया. एतत् सम्भाषणम् उच्चैः पठत. कृष्णः अहं यदस्ति तत् सर्वम् उक्तवान्. भवतः इतोपि सन्देहाः न सन्ति खलु?
नास्ति कृष्ण, अहं पूर्वस्य अपेक्षया सर्वं सम्यक् अवगच्छामि, किन्तु मया किं करणीयम् इति भवान् वदतु.
प्रायशः किं किं वक्तव्यं तत् सर्वम् अहम् उक्तवान्. भवतः विवेकः अस्ति खलु? मम कथनस्य अपेक्षया भवान् स्वयं विचिन्त्य यथा इच्छति तथा करोतु.
हे भगवान्, इदानीम् अहं स्मृतिं प्राप्तवान्. अहं भवतः वाक्यं निश्चयेन पालयामि.
हा, धन्यवादः. हा, अस्तु अस्तु, समीचीनम् अस्तु. तत्र वंशी सुधा भगिनी किञ्चित् विवृणोति वा, तत्र कृष्णस्य वाक्ये किं किम् अस्ति इति.
आम् आं महोदय, नमस्ते महोदय. कृष्णः उक्तवान् यदस्ति अहं सर्वं
किञ्चित् उच्चैः वदतु भगिनि.
आं महोदय, अधुना कथम् अस्ति?
अधुना सम्यक् अस्ति भगिनि, अधुना सम्यक् अस्ति.
कृष्णः उक्तवान् अर्जुनं प्रति, यद् अहं जानामि अहं सर्वं तम् उक्तवान्, किन्तु यदि सन्देहः इतोपि सन्देहः अस्ति चेत् इतोपि सन्देहः नास्ति खलु इति सः पृष्टवान् अर्जुनं प्रति.
हा तत्र अहं यत् अस्ति यदस्ति तत् सर्वम् उक्तवान्. भवतः इतोपि सन्देहाः न सन्ति खलु. तत्र खलु इत्युक्ते नास्ति, सन्देहः नास्ति इति चिन्तयामि तत् तत् समीचीनं वा इति खलु.
आं महोदय.
अस्तु. हा खलु उपयोज्य एव अत्र अपि मम प्रश्नः आसीत्. अस्तु अग्रे अग्रे भगिनि.
अर्जुनः उक्तवान् नास्ति कृष्णः मम
तत्र सन्देहः कोऽपि सन्देहः नास्ति
नास्ति इत्युक्ते सः गीतां श्रुतवान् इति अहं चिन्तयामि. अतः अहं किं अहं मया किं करणीयं भवान् एव वदतु, यतोहि भवतः आदेशः अहं पालयामि.
न न भवती भगिनि भगिनि किन्तु वाक्यं वाक्यं परिशील्य वदामः तत्र. द्वितीयवाक्यं तत्र अर्जुनः किं भवति नास्ति कृष्ण नास्ति इति तत्र किञ्चित् अधिकं वदतु किं नास्ति.
सन्देहः नास्ति.
मम सन्देहः नास्ति.
अहं पूर्वस्य अपेक्षया सर्वं सम्यक् अवगच्छामि इत्युक्ते पूर्वं भ्रमः जातः अतः अधुना तु भ्रमः नास्ति अतः सर्वं सम्यक् इति उक्तवान्.
सम्यक् इदानीं सम्यक् अवगच्छामि. तत्र अपेक्षया इति अस्ति. अपेक्षया इति अव्ययमस्ति. तत्र नियमः कः अपेक्षया इति पदं भवति चेत् तत्र
पूर्व षष्टिविभक्ति उपयोगं
षष्टिविभक्ति भवेत्. पूर्वपदं षष्टिविभक्तौ भवेत् इति नियमः. समीचीनं भगिनि. अतः एव पूर्वस्य अपेक्षया इति अस्ति. हा अग्रे किन्तु
अपि अव्ययं पदमस्ति. किन्तु मया किं करणीयम् इति भवान् वदतु इत्युक्ते
सर्वम् अवगच्छामि. हा वदतु भगिनि. हा
किन्तु अव्ययं पदमस्ति इत्युक्ते परन्तु इति शब्दः अपि पर्यायपदमस्ति अहं चिन्तयामि. अतः मया किं करणीयम् इत्युक्ते अहं किं करोमि इति सः एव वदतु.
भवान् एव श्रीकृष्णः एव वदतु. भवान् एव वदतु इति अर्जुनः वदति. तदनन्तरं कृष्णः किं वदति.
कृष्णः वदति प्रायशः किं किं वक्तव्यं तत् सर्वम् अहम् उक्तवान् इत्युक्ते प्रायशः इत्युक्ते किं वक्तव्यं महोदय. प्रायशः संस्कृत
तत्र प्रायशः इत्युक्ते तत्र प्रायः संशयः नास्ति. संशयः किमपि न भवेत् अत्र सत्यमेव इति मन्ये.
ओ अस्तु. कृष्णः वदति अहं सर्वं उक्तवान्
यद् वक्तव्यमासीत् तत् सर्वम् अहम्
उक्तवान्. भवतः विवेकः अस्ति खलु. मम कथनस्य अपेक्षया भवान् स्वयं विचिन्त्य यदा इच्छति तथा करोतु. कृष्णः वदति अर्जुनस्य प्रति त्वं विवेकेन चिन्तयतु किं करणीयम्.
समीचीनं भगिनि. हा त्वमेव तव विवेकम् उपयुज्य किं करणीयम् इति चिन्तयित्वा तत् करोतु. यथा इच्छति तथा करोतु इति. हा यथा तथा इति रूपमपि तत्र आगतमस्ति. तत्र कथनस्य अपेक्षया तत्रापि षष्टि अपेक्षया. हा अग्रे भगिनि.
अर्जुनः हे भगवान् इदानीम् अहं स्मृतिं प्राप्तवान्. अहं भवतः वाक्यं निश्चयेन पालयामि. अर्जुनः वदति अहं स्मृतिं प्राप्तवान् इत्युक्ते किं स्मृतिम् अर्थः किं महोदय तत्र
स्मृतिं किं वक्तुं शक्नुमः अत्र अन्य कोऽपि वदति विवेकम् अस्तु
अहं विवेकं प्राप्तवान् अतः अहं मम बुद्धिः सम्यक् प्रचलति अतः निश्चयेन अहं भवतः वाक्यम् एव पालयामि इति अर्जुनः
सः वदति अस्तु तत्र पालयामि इति अस्ति क्रियापदं तत्र वाक्यं किं भवति भवतः वाक्यं
निश्चयेन पालयामि
हा तत्र अहं पालयामि भवतः वाक्यं कर्मपदं वाक्यं खलु वाक्यं पालयामि
निश्चयेन अपि अव्ययपदं नास्ति किल महोदय तत्र
न न निश्चयेन इति अव्ययम् अस्ति भगिनि समीचीनप्रश्नः
क्रियाविशेषण
तत् अव्ययम् अस्ति
तृतीया
अस्तु तत्र किञ्चित् वक्तव्यमस्ति किन्तु तत्र एक अस्तु निश्चयेन इति अत्र तु अव्ययमस्ति किन्तु तत्र येन इति अस्ति अतः रूपं दृष्ट्वा क्लेशः अपि भवति तत्र तृतीयविभक्ति किमर्थं नास्ति इति अस्तु तदपि किञ्चित् परिशीलयामः किन्तु अत्र खलु इति अव्ययमस्ति सर्वे अवगच्छन्ति इति मन्ये खलु इत्युक्ते अपेक्षया इति अस्ति किन्तु प्रायशः तत्र अपेक्षया इति अपि तद् अपेक्षा अपेक्षया इति अपि तत्र तृतीया भवितुम् अर्हति खलु अपेक्षा अपेक्षया किन्तु तद् अव्ययम् अस्ति तादृश एव तत्र निश्चयेन अपि अव्ययम् इति एव अस्ति तत्र निश्चयेन इति तत्र एतत् बहुवारम् आगच्छति तत्र निश्चयेन इति तृतीयविभक्ति भवति चेत् तत्र प्रथमविभक्तिरूपं किं भवति
निश्चयः वा निश्चयं वा महोदय
निश्चयम् अथवा निश्चयः अस्तु समीचीनम् अस्तु निश्चयः वा निश्चयं वा इति भवति निश्चयः इति रूपम् अस्ति इति मन्ये पुल्लिङ्गः अस्तु तर्हि निश्चयः अस्ति निश्चयेन इति अस्ति निश्चयः इत्युक्ते किम् इति कोऽपि जानाति वा
निसन्देहः
निश्चयः निश्चयः न न सन्देहः नास्ति इति न निश्चयः
अवश्यं करोमि
तत्र निश्चयः इत्युक्ते तत्र किं करणीयम् अत्र अद्य अहं कार्यालयं गच्छामि न गच्छामि किं करोमि अस्तु अद्य अहं कार्यालयं गच्छामि इति निश्चयः निश्चयं कृतवान् निश्चयः निश्चयं कर्मपदं निश्चयम् अस्तु निश्चयः किमपि कर्तव्यमासीत् तत्र विकल्पः किमपि अस्ति किन्तु निश्चयः कृतम् अथवा तत्र मासद्वयं यावत् अहं संस्कृतेन एव वदामि नो चेत् मौनेन तिष्ठामि इति निश्चयं कृतवान् अहम् इति
स्थिरमतिः महोदय
स्थिरमतिः तादृश स्थिरम् इति तत्र अस्तु अतः तत्र निश्चयः इति पदमस्ति इदानीं तत्र एतत् स्वीकरोतु अहं तत्र किं साधारणतया तत्र युधिष्ठिरः किमपि निश्चयं कृतवान् अस्ति युधिष्ठिरस्य निश्चयं श्रुत्वा भीमः खिन्नः भवति इति चिन्तयामः युधिष्ठिरं किमपि निश्चयं कृतवान् किन्तु तस्य निश्चयं श्रुत्वा भीमः खिन्नः भवति इदानीं एकं वाक्यं वक्तुमिच्छामश्चेत् किं कीदृशवाक्यं भवति भीमस्य विषये भीमः खिन्नः भवति केन अत्र निश्चयेन इति पदस्य अर्थः कः सर्टन्ली इति अर्थः वा
सर्टन्लि डेफिनेट्लि इति प्रथमं निश्चयः धृतराष्ट्रस्य निश्चयः कन्क्लूजन् इति अर्थे भवति इति अहं मन्ये निश्चयेन
तत्र निश्चयेन इति सर्टन्लि इति यत् यत् अत्र अस्मिन् पुटे अस्ति निश्चयेन अहं भवतः वाक्यं निश्चयेन पालयामि तद् निश्चयेन तु सर्टन्लि इति खलु किन्तु तत्र सः खिन्नः अभवत् केन केन कारणेन अथवा कस्मात् कारणात् तत्र कस्मात् कारणात् केन इति वदामश्चेत् तत्र निश्चय तत्र निश्चयेन इति किन्तु तत्र कस्मात् कारणात् इति वदामश्चेत् तत्र रूपभेदः भवति खलु निश्चयात् निश्चयात् इति भवति तस्य निश्चयात् निश्चयात् इति भवति अतः तत्र तद् रूपं तद् तत्र निश्चयः इति पदेन यत् तृतीयविभक्तिरूपं प्राप्नुमः तस्य अर्थः भिन्नः अपि एतस्य पदस्य निश्चयेन इति यत् पदम् अत्र अव्ययम् इति रूपं यद् दत्तमस्ति तस्य पदस्य अर्थः भिन्नः तत्र निश्चयेन
महोदय यत् महोदय श्रोतुम् इच्छति यदि वयं द्वे पदे अपि योजयित्वा वाक्यं
तत्र भ्रमात्मकवाक्यं भवति खलु निश्चयेन निश्चयेन
धृतराष्ट्रस्य निश्चयात् भीमः निश्चयेन खिन्नः समीचीनं वा महोदय
समीचीनं समीचीनमेव अतः तत्र पद पद पदस्य अर्थः भिन्नः खलु अतः तत्र यदि तत्र निश्चयेन अपि द्विवारं भवति द्वयं भवति समानार्थकं नास्ति इति कृत्वा तत्र एकं तु अव्ययम् अस्ति अन्यत् अव्ययं नास्ति अतः अतः अत्र निश्चयेन इति यत् रूपं दृष्ट्वा तृतीया इति चिन्तयामः किन्तु तत्पदं तृतीयाविभक्तिनिश्चयः इति पुल्लिङ्ग अकारान्तपुल्लिङ्गपदेन एतत् पदं तत्र तृतीयविभक्तिरूपम् इति न चिन्तनं करणीयं किन्तु एतत् अव्ययं तस्य अर्थः भिन्नः इति अस्तु अस्तु अग्रे गच्छामः इदानीं तत्र उषा भगिनी अग्रे पठति वा
आं महोदय एतानि वाक्यानि उच्चैः पठत मनः निश्चयेन दुर्निग्रहं चलं च भवति
तत्र किमस्ति
मनः प्रथमविभक्ति अस्ति मनस्
मनः
द्वितीयविभक्ति मनः निश्चयेन
न मनः इति विभक्तिका मनः इति पदस्य विभक्तिका
मनः अत्र कर्मपदमस्ति वा महोदय
अस्तु तत्र क्रियापदं किम् अस्ति क्रियापदं किम् अस्ति
मनः निश्चयेन मनः कर्तृपदम् अस्ति चलं भवति अकर्मक अस्ति
अतः कर्मपदं नास्ति
कर्मपदं नास्ति
अतः मनः इति कर्तृपदं
कर्तृपदं
मनः कर्तृपदं
निश्चयेन दुर्निग्रहं चलं च भवति
तत्र एतत् स्वीकुर्मः भगिनी भगिनी तत्र एतत् कुर्मः मनः भवति लघुवाक्यं मनः भवति कर्तृपदं क्रियापदं मनः भवति निश्चयेन अन्ते स्थापयामः मनः चलं भवति
केन
न अन्ते निश्चयेन अन्ते स्थापयामः
अस्तु महोदय
अपि 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 इदानीमेव वयं दृष्टवन्तः तत्र केन इति अर्थः नास्ति तत् निश्चयेन इति तृतीयाव्यक्ति नास्ति तत् अव्ययमस्ति खलु अतः तत् मास्तु चलं भवति मनः चलं भवति तत्र चलम् इत्युक्ते किं मनः कीदृश
मनः
वस्तु अस्ति मनस् 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 चञ्चलमनः तत्र चञ्चलम् अस्ति, मनः अस्ति, अश्वः इव खलु मनः, मनः अश्वः एकस्मिन् स्थले अत्र तिष्ठतु इति, अत्र तिष्ठतु इति वदामश्चेत् अत्र एव तिष्ठति वा न, इतस्ततः गच्छति हा तत्र, अतः तत्र निय तत्र लघुबालकः अपि तादृशः खलु, अतः तत्र चलः चलं चलमिति रूपं तत्र बालकः चलः इति वदामः, किन्तु अत्र चलमिति अस्ति, किमर्थं मनः चलमिति रूपं स्वीकृतम् अत्र?
कर्तृपदम् अस्ति, अपि च
मनः इति कर्तृपदं, मनः इति कर्तृपदं, चलं भवति, चलं भवति, भवति इति अकर्मकक्रियापदम् अतः कर्मपदं नास्ति, चलमपि प्रथमविभक्तिरूपमेव भवति, चलमपि प्रथमविभक्तिरूपम् अस्ति चेत् कीदृश तस्य लिङ्गं किं?
नपुंसकं,
नपुंसकलिङ्गं,
हा नपुंसकलिङ्गपदम्, अतः तत्र किं भवति, तत्र चलम् इति अपि मनः, तयोः मध्ये कः सम्बन्धः? विशेषभावः, अतः मनः अपि नपुंसकलिङ्गपदं, मनस् सकारान्तपदं, सकारान्त नपुंसकलिङ्गपदं, प्रथमविभक्ति एकवचनरूपं मनः, मनः चलं भवति, अपि मनः दुर्निग्रहं भवति, दुर्निग्रहम् इत्युक्ते तस्य नियन्त्रणं, नियन्त्रणं तस्य तस्य निग्रहम् अथवा तस्य नियन्त्रणं, कण्ट्रोल्, तस्य कण्ट्रोल् नियन्त्रणं, तत्र यानस्य नियन्त्रणं, चालकः यानस्य नियन्त्रणं करोति, वयम् अस्माकम् इन्द्रियाणां नियन्त्रणं कुर्मः, ततः तत्र तादृश अर्थे तत्र मनः दुर्निग्रहं, पुनः तद् विशेषणम् अस्ति, तद् बहु कष्टः अस्ति तस्य नियन्त्रणं कर्तुं, बहु तस्य नियन्त्रणं कर्तुं न शक्नुमः, अतः तस् मनः दुर्निग्रहं, मनः दुर्निग्रहं, मनः चलम्, अतः मनः दुर्निग्रहं चलं च भवति। तत्र संशयः अस्ति वा, मनः एतादृशम् अस्ति न वा इति?
तत्र
सर्वे वयं सर्वे जानीमः निश्चयेन चलम् अस्ति, निश्चयेन दुर्निग्रहम् अस्ति इति वयं सर्वे जानीमः, अतः वक्तुं तत्र सन्देहः कोऽपि सन्देहः नास्ति, निश्चयेन वक्तुं शक्नुमः मनः निश्चयेन वदतु भगिनि, निग्रहं
गृह्णाति इति पदेन,
सत्यं सत्यं, तस्य ग्रहणं न, किन्तु दुर्निग्रहं चलं च भवति, मनः निश्चयेन दुर्निग्रहं चलं च भवति, संशयः कोऽपि नास्ति अत्र, नास्ति इति, अस्तु समीचीनम्, अग्रे गच्छामः, लक्ष्मी भगिनी अग्रे।
जातस्य मृत्युः निश्चयेन भवति, जातस्य यः जातः तस्य मृत्युः निश्चयेन भवति,
यः जातः इत्युक्ते कः? यस्य जन्मः अस्ति, ललिता भगिनी एकनिमिषः, एकनिमिषः, लक्ष्मी भगिनी वदति खलु इदानीं, अतः एकनिमिषः भगिनि, लक्ष्मी भगिनी वदतु। अस्ति, सः जातः, सः जातः, तस्य मृत्युः
भवति,
निश्चयेन भवति, निश्चयेन भवति, अतः यः यस्य जन्म नास्ति तस्य मृत्युः अपि नास्ति इति वक्तुं शक्नुमः वा खलु? इति तादृशचिन्तनमपि भवति खलु, अस्तु, तत्र जातस्य मृत्युः भवति, तत्र कर्तृपदं किम् अस्ति अस्मिन् वाक्ये?
मृत्युः।
लक्ष्मी भगिनी, भवत्याः वाक्ये कर्तृपदं किम् आसीत्? मृत्युः एव, मृत्युः एव, हा, मृत्युः भवति, जातस्य मृत्युः भवति, जातस्य मृत्युः निश्चयेन भवति इति। समीचीनं भगिनि, हा, अस्तु, अग्रे वेदा भगिनी, अग्रे।
मृतस्य जन्म अपि निश्चयेन भवति, मृतस्य जन्म अपि निश्चयेन भवति, यस्य जन्म अस्ति तस्य मृत्युः भवति, तस्य जन्म अपि
पुनर्जन्म भवति, तत्र यस्य मरणं भवति तस्य पुनर्जन्म अपि भवति। तत्र कर्तृपदं किम् अस्ति?
कर्तृ जन्म एव जन्म प्रातिपदिकं किं जन्म? प्रातिपदिकं
कोऽपि जानाति वा? अहं चिन्तयामि तत्र जन्म, तत्र नपुंसकलिङ्गपदम् इति
जन्म
पुल्लिङ्गपदं नास्ति इति मन्ये भगिनि।
जन्म न
द्रष्टव्यमस्ति, न स्मरामि, अन्य कोऽपि स्मरति वा?
जन इति
अहं मन्ये, न जन्म इति पदम् अस्ति, तस्य प्रातिपदिकं किम् इति प्रश्नः। अस्तु, द्रष्टव्यमस्ति भगिनि, द्रष्टव्यमस्ति भगिनि, हा, इति मम
नकारान्तम्
इति मम चिन्तनम् अस्ति भगिनि, किन्तु निश्चयेन न जानामि अतः न स्मरामि, हा, किन्तु तादृश अस्ति इति मन्ये भगिनि, हा, सत्यम्। अस्तु, अग्रे नरेश महोदय।
निश्चयेन आत्मानं न छिन्दन्ति शास्त्राणि,
तत्र न शस्त्राणि महोदय, शास्त्राणि न,
शस्त्राणि, शस्त्राणि आत्मानं नष्टं कर्तुं न शक्नोति।
छिन्दन्ति इत्युक्ते, छिन्दति इत्युक्ते किं?
छेदं
तत्र, तत्र भेदनं करोति इति, तत्र अन्ते तत्र नाशं, तस्य नाशं करोति अर्थे, किन्तु तत्र आङ्ग्लभाषायां किं पियर्स् इति, छेदनं, छिन्दन्ति, तत्र निश्चयेन शस्त्राणि आत्मानं न छिन्दन्ति। आत्मानम् इति पदं कीदृशपदम् तत्र?
द्वितीयविभक्ति,
कर्मपदम्, आत्मानं कर्मपदं, शस्त्राणि कर्तृपदं, छिन्दन्ति क्रियापदम्, आत्मानं कर्मपदम्, आत्मानं न छिन्दन्ति इत्युक्ते यद्यपि शस्त्राणि देहं, तत्र किं, देहं छिन्दति, किन्तु आत्मानं न छिन्दति, आत्मानं न छिन्दति इति अर्थः तत्र। अस्तु, अतः तस्य आत्मनः नाशः न भवति एव शस्त्रेण इति। अस्तु, समीचीनम्, अस्तु, अग्रे शोभा भगिनि।
निश्चयेन पावकः आत्मानं न दहति, तत्र पावकः इत्युक्ते अग्निः इति, आत्मानं पुनः आत्मा इति शब्दस्य कर्मपदं, दहति क्रियापदं, तत्र पावकः प्रथमविभक्तौ, पावकः कर्तृपदं, पावकः दहति, पावकः कं दहति इत्युक्ते आत्मानं न दहति, क्षम्यता, पावकः कं न दहति तत्र पावकः आत्मनं न दहति अनन्तरं किं रूपेण किमर्थं तत्र किमर्थम् इति वक्तुं शक्नुमः वा
किमर्थम् इति न किमर्थं न तत्र सन्देहः अस्ति वा तत् सत्यं वा तत् वस्तुस्थितिः वा सत्यं तत्र सन्देहः नास्ति एतत् एव सत्यमस्ति वस्तुतः पावकः आत्मानं न दहति
इत्युक्ते तत्र निश्चयेन इति पदं प्राप्तुं प्रश्नः किं भवति महोदय
तत्र प्रायशः तत्र विभक्तिरूप प्रश्नः
नास्ति
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 तत्र केन कस्मात् इति तद् न वक्तुं शक्नुमः
अस्तु
यद्यपि रूपं तादृशम् अस्ति किन्तु
सत्यं महोदय अतः
किन्तु किन्तु तत्र अव्ययम् अस्ति इति कृत्वा तत्र अस्तु तत्र निश्चयेन तत्र सत्यं तत्र खलु अथवा न तत्र प्रायशः किं वक्तुं शक्नुमः एतत् सत्यं वा इति तत्र निश्चयेन 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 सन्देहः नास्ति इति तत्र प्रायशः तादृशप्रश्नः भवेत् अस्तु समीचीनम् आत्मानम् इति कर्मपदमत्र अस्तु ललिता भगिनी अग्रे
वदामि भगवान् निश्चयेन पापेभ्यः मोक्ष इष्यति मोक्ष इष्यति कर्तृपदम्
न मोक्ष इष्यति किं मोक्ष इष्यति किं
कर्तृ सारि क्रियापदं क्रियापदं मोक्ष इष्यति क्रियापदं
कर्तृपदं किम् अस्ति
कर्तृपदं भगवान् कर्तृपदं पापेभ्यः
कर्तृपदं वा कर्तृपदं
कर्तृ भगवान् भगवान्
हा भगवान् मोक्षे इष्यति
पापेभ्यः कर्मपदम्
पापेभ्यः कर्मपदं वा अस्तु किमर्थम् अस्तु
पापेभ्यः तृतीया विभक्ति न
अस्तु 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 एकनिमिषं भगिनि अस्तु 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 धन्यवादः भगिनि अग्रे अग्रे पश्यामः अस्तु किन्तु समीचीनम् एतावत् समीचीनं मोक्षयिष्यति क्रियापदं भगवान् इति कर्तृपदं
सम्यक् न सम्यक् नास्ति वा
न एतावत् समीचीनमस्ति इदानीं पापेभ्यः इति पश्यामः तत्र किम् अस्ति इति गीताञ्जलि भगिनी पापेभ्यः इति रूपं किम्
पापेभ्य महोदय पञ्चमी बहुवचन अस्ति वा महोदय
समीचीनं हा पापात् पापात् पापं यत् सर्वं पापम् अस्ति तस्मात् मोचनं करोति भगवान् विमोचनं ददाति तादृशार्थे तत्र भगवान् पापेभ्यः मोक्षयिष्यति पापेभ्यः इति पञ्चमी बहुवचनं तस्मात् तस्मात् मोचनं तत्र पञ्चमी बहुवचनं निश्चयेन इति पुनः अव्ययं समीचीनं पापेभ्यः इति समीचीनं भगिनि अस्तु अग्रे करोतु
अहं करोमि महोदय
करोतु भगिनि करोतु
अस्तु अस्तु कल्याणकृत् निश्चयेन दुर्गतिं न गच्छति गच्छति तु क्रियापदं न गच्छति कर्तृपदं तु कल्याणकृत् इति एव
तदेव तकारान्तपदं तकारान्तकृत् कल्याणकृत् कल्याणकृत् न गच्छति
यः कल्याण यः कल्याण कृतवान् कल्याणकृत्
सत्यं भगिनि यः
अस्तु
तत्र लोकस्य कल्याणं मनसि निधाय सर्वं करोति इति तादृश अर्थे तादृश यः अथवा या तादृशः तादृशी तादृशः अस्ति सः अथवा सा दुर्गतिं न गच्छति निश्चयेन न गच्छति हा अस्तु समीचीनम् अस्तु अग्रे रघुवीर आनन्दस्वामी
महोदय आत्मजनस्य अपेक्षया ज्ञानी विशिष्यते महोदय विशिष्यते आत्मनेपदं महोदय
हा आत्मनेपदं हा सत्यं तत्र कर्तृपदं किम् अस्ति
कर्तृपदं ज्ञानी महोदय
ज्ञानी एव हा ज्ञानी विशिष्यते विशिष्यते इत्युक्ते सः उपरि अस्ति सः उत्तमः अस्ति कस्य अपेक्षया
आर्तजनस्य अपेक्षया
आर्तजनस्य अपेक्षया वयं सर्वे आत्म आर्तजनाः एव खलु तत्र ज्ञानी इत्युक्ते कः ज्ञानी कः अस्ति
महोदय आर्त इत्युक्ते किम्
आर्तजनस्य लौकिकजनस्य यत् कष्टम् अनुभवन्ति इच्छाः सन्ति हा दीनजनस्य अस्तु आर्तजनस्य
आर्त इत्युक्ते दीन एव न महोदय दुःखिता
दुःखितः जनाः कष्टं यः अनुभवति हा तादृश वयं सर्वे आर्तजनाः एव इति मन्ये अतः तत्र आर्तजनस्य अपेक्षया ज्ञानी विशिष्यते इत्युक्ते सः उत्तमः ज्ञानी उत्तमः इति कीदृशज्ञानी इत्युक्ते यः तत्र सर्वं तत्र बहूनि पुस्तकानि पठितवान् सर्वं जानाति इति तादृशः ज्ञानी वा तादृश ज्ञानी पुस्तकेन न प्राप्तं वदतु महोदय
आत्मनि तुष्यति
हा तादृशज्ञानी हा समीचीनं महोदय हा सः उत्तमः आर्तजनस्य अपेक्षया आर्तजनस्य इति षष्ठी अपेक्षया इति पदम् अस्ति इति कृत्वा अस्तु अग्रे गच्छामः वंशी सुधा भगिनी अग्रे
तत्र किन्तु निश्चयेन प्रायशः खलु अपेक्षया सर्वे अव्ययानि एव
आम् महोदय सर्वम् अव्ययमेव किन्तु इति अव्ययं निश्चयेन अव्ययं प्रायशः इति अव्ययं खलु अपि अव्ययं
भवान् पूर्वं निश्चयेन इति तृतीया वा
तत्र तृतीया इति अस्ति किन्तु तत् पदमपि अस्ति किन्तु तस्य पदस्य अर्थः भिन्नः महोदय निश्चयेन इति माध्यमम् अस्ति तस्य अर्थः भिन्नः तत्र सर्टन्लि इति अर्थः नास्ति यदि तृतीया विभक्तिरूपं स्वीकुर्मः तत्र निश्चयेन इत्युक्ते निश्चयः इति डिसिशन् इति स्वीकुर्मः निश्चयः इत्युक्ते कस्य अथवा कस्याः डिसिशन् तेन किमपि अभवत् ही डिसैडेड् लैक् दिस् एण्ड् बिकास् आफ् हिस् डिसिशन् दिस् हेपेण्ड् इति तत्र निश्चयेन इति भवति तत्र निश्चयेन इति भवति किन्तु अत्र सर्टन्लि इति अर्थः अस्ति बिकास् आफ् दट् डिसिशन् इति अर्थः नास्ति अत्र अतः तत्र निश्चयेन इति तृतीयविभक्ति पदम् अस्ति किन्तु तत् पदं भिन्नम् अस्ति अत्र निश्चयेन इति अव्ययपदम् अस्ति अत्र अर्थः सर्टन्लि इति अर्थः
महोदय
महोदय प्रश्नः अस्ति महोदय भगवान् निश्चयेन पापेभ्यः मोक्षयिष्यति तत्र मोक्ष इष्यति लृट् लकारे अस्ति न महोदय परन्तु मोक्ष इति सर्वदा मोक्ष इति किल महोदय
किन्तु केवलम् अस्मिन् जन्मे जन्मनि इति न खलु
इत्युक्ते किं महोदय
तत्र केवलम् एकमेव जन्म इति न अस्ति खलु भगिनि हा अतः अनेकानि अनेकानि जन्मानि सन्ति सर्वेषु सर्वदा सः मोक्षयिष्यति इति केवलं मोक्षयति इति न मोक्ष तत्र मोक्षं दत्तवान् मोक्षयति अपि मोक्षयिष्यति इति
मोक्षयति अपि मोक्षयिष्यति भेदः किम् अस्ति महोदय लृट् लकारस्य लट् लकारस्ति परन्तु बन्धनात् मोक्षयति
तत् यदि तत्र लकारस्य कः नियमः यदि वदामः सः करोति अपि करिष्यति भेदः कः
भेदः
भवति करोति भवति करिष्यति भेदः कः
लकार लट् लकार
लकार भेदः अस्ति किन्तु अर्थभेदः इत्युक्ते तत्र न न अर्थभेदः अपि अस्ति खलु तत्र सन्दर्भः भिन्नः अस्ति खलु करिष्यति इत्युक्ते किं
करोति इत्युक्ते
वर्तमानकाल अथवा अद्यतनविषयः अस्ति किन्तु श्वः करोति इति साधारणतया न वदामः खलु अग्रिमे वासरे अहं करोमि इति तत्तु साधु नास्ति खलु करिष्यामि इति एव हा अतः तत्र अत्र एतत् रूपं स्वीकृत्य मोक्षयिष्यति इत्युक्ते केवलं भविष्यत्काले एव सः करोति भगवान् करोति इति न अतः सः कुर्वन् अस्ति कृतवान् कुर्वन् अस्ति करिष्यति इति कालत्रये सः एतत् मोक्षयिष्यति मोक्षितवान् मोक्षयति सर्वं तत्र अन्तर्भूतम् अस्ति इति मन्ये भगिनि तत्र केवलम् अस् हा यदि अन्ये किमपि चिन्तनं कुर्वन्ति चेत् कृपया वदन्तु किमर्थं मोक्षयिष्यति
कदाचित् भगवान् तत्क्षणे एव मोक्षं दास्यति अपि भविष्यत् भवति ददाति कदाचित् जीवनस्य अन्ते मोक्षं
अस्तु तदपि समीचीनमस्ति भगिनि समीचीनं तत्र अस्मिन् क्षणे एव न भवति इति कृत्वा भविष्यत्कालरूपं स्वीकृतम् इति समीचीनं भगिनि
तं शरणं गताः तेषां सर्वदा मोक्षं भविष्यति इति अर्थे अपि अस्ति इति अहं मन्ये महोदय
अस्तु समीचीनमेव उषा भगिनी किं चिन्तनम् इदानीं
गीता भगवद्गीतायाम् अष्टादशाध्याये
वा
अष्टादशाध्याये
66
अस्ति महोदय श्लोक अस्तु परित्यज्य मामेकं शरणं व्रज अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः मोक्षयिष्यामि
इति एव रूपम् अस्ति अस्तु
मोक्षयिष्यामि
समीचीनं वा भगिनि उषा भगिनि
अस्तु महोदय
अस्तु अस्तु इदानीं तत्र वंशीसुधा भगिनी भवत्याः पर्यायः आसीत् इति मन्ये
आं महोदय अन्तिमवाक्यं वा खलु महोदय
सत्यं भगिनि
कर्मयोगस्य अपेक्षया ज्ञानयोगः विशिष्यते अतः कर्मयोगस्य अपेक्षया ज्ञानयोगम् इति विशिष्यते इत्युक्ते
उत्तमम् अस्ति उत्तमम् अस्ति
विशेष
श्रेष्ठः अस्ति
श्रेष्ठः अस्ति महोदय
हा बि उपसर्गः शिष्यते विशिष्यते श्रेष्ठः अस्ति कर्मयोगस्य अपेक्षया ज्ञानयोगः अथवा कर्ममार्गेण मार्गस्य अपेक्षया ज्ञानमार्गः उत्तमः उत्तमः इति समीचीनं तत्र कर्तृपदं किम्
कर्तृपदं किम् अस्ति महोदय तत्र एतत्तु वाक्यमस्ति परन्तु
क्रियापदं किम् अस्ति विशिष्यते इति क्रियापदम् अस्तु तत्र कर्मयोगस्य तु कर्तृपदं नास्ति अपेक्षे अपि कर्तृपदं नास्ति ज्ञानयोगः विशिष्यते तावदेव कस्य अपेक्षया ज्ञानयोगः विशिष्यते कर्मयोगस्य अपेक्षया ज्ञानयोगः विशिष्यते ज्ञानयोगः कर्तृपदं तावदेव भगिनी लघुवाक्यम् अस्ति इति कृत्वा तत्र क्लेशः भवति तावदेव अस्तु 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 तर्हि अग्रे उषा भगिनी अग्रिम अभ्यासः आरम्भं करोति वा
महोदय अभ्यासः किन्तु निश्चयेन प्रायशः अपेक्षया खलु एतेषु योग्यं शब्दं स्वीकृत्य रिक्तस्थानानि पूरयत यथा अर्जुनः धीरः आसीत् किन्तु बान्धवान् दृष्ट्वा चञ्चलः अभवत् अर्जुनः धीरः आसीत् परन्तु किन्तु परन्तु अपि
समानार्थकपदं
बान्धवान् दृष्ट्वा चञ्चलः अभवत्
बान्धवान् इति किं विभक्तिकार्थं
तृतीयविभक्ति न षष्ठीविभक्ति बहुवचनं
बान्धवान् न दृष्ट्वा इति अस्ति तत्र पश्यति इति खलु दृष्ट्वा पश्यति सः किं करोति बान्धवाः सन्ति बान्धवान् पश्यति तदनन्तरं चञ्चलः भवति खलु चञ्चलः अभवत् अतः तत्र प्रथमं किं भवति प्रथमक्रिया सः पश्यति खलु हा सः पश्यति तदनन्तरं सः चञ्चलः भवति खलु एतत् सर्वं प्रथम पश्यति तदनन्तरं चञ्चलः भवति इदानीं तस्य भूतकालरूपं बान्धवान् दृष्ट्वा चञ्चलः अभवत्
क्षम्यतां महोदय कृतवान् तव तु प्रत्ययः
न किन्तु दृष्ट्वा इति न किन्तु बान्धवान् इति पदस्य विभक्ति का इति तावदेव पश्यति बान्धवान् पश्यति सः बान्धवान् पश्यति
बान्धवान् प्रथमाविभक्त्यां किमस्ति
न सः अर्जुनः बान्धवान् पश्यति उषा भगिनी अर्जुनः बहुवचनमेव अर्जुनः पश्यति तत्र क्रियापदं पश्यति कर्तृपदं किम् अर्जुनः पश्यति पश्यति क्रियापदं कर्तृपदं कः पश्यति अर्जुनः पश्यति अतः अर्जुनः कर्तृपदम् अर्जुनः किं पश्यति
बान्धवान्
पश्यति अतः कर्मपदं किमस्ति
द्वितीयभक्ति बहुवचनं
हा बान्धवान् द्वितीयभक्ति बहुवचनं बान्धवान्
दृष्ट्वा किमस्ति महोदय
अर्जुनः बान्धवान् बान्धवाः देवः देवः देवौ देवः देवं देवौ देवान् पुल्लिङ्गपदं खलु बान्धवान् इति रूपं दृष्ट्वा पुल्लिङ्ग अकारान्त देवशब्दवत् इति
चञ्चलः अभवत्
तत्र बन्धुः इति रूपं नास्ति एतत्
तदेव मम प्रश्नः
एतत् इदानीम् अहम् अवगच्छामि अस्तु बन्धुः अस्ति चेत् बन्धुः बन्धु
बन्धवः
इति. किन्तु एतत् अस्ति बान्धवः, एतत् अस्ति बान्धवः, अतः भिन्नः अस्ति. समानं समानमेव, समानमेव. अग्रे वाक्यं वदतु भगिनि, प्रथमवाक्यं.
ज्ञानमार्गस्य भक्तिमार्गः सरलः. ज्ञानमार्गस्य अपेक्षया भक्तिमार्गः सरलः.
हा, समीचीनं. कथं जानीमः तत् तत्र अपेक्षया एव सम्यक् भवति इति?
तुलना अस्ति महोदय तत्र.
हा, तुलना अस्ति, अस्तु. हा, तुलना अस्ति एकम्, अपि द्वितीयम् अस्ति षष्टिविभक्ति, अपि द्वितीयं द्वितीयः अंशः अस्ति. समीचीनं भगिनि, हा समीचीनं, हा अस्तु. अग्रे लक्ष्मी भगिनि.
गीतोपदेशेन अर्जुनस्य विषादः नष्टः.
तत्र किं भवति, किन्तु अथवा निश्चयेन अथवा प्रायशः अथवा अपेक्षया अथवा खलु 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 तत्र निश्चयेन इति भवति चेत् प्रश्नः न भवति, किन्तु इति तत्तु केवलं वाक्यं भवति, अतः खलु इति. हा, तत्र अत्र गीतोपदेशेन इति तृतीया, अर्जुनस्य विषादः नष्टः खलु इति, खलु इति अव्ययं. तत्र क्रियापदं किम् अस्ति भगिनि तत्र अस्मिन् वाक्ये? विषादः क्रियापदं नास्ति, क्रियापदं नास्ति विषादः. किं भगिनि? नष्टः अपि क्रियापदं नास्ति, नामपदमस्ति नष्टः. विषादः नष्टः, तत्र क्रियापदं न दत्तमस्ति. हा, नष्टः भवति अथवा नष्टः भवति इति प्रायः भवति इति क्रियापदम् इति मन्ये. हा, अतः नष्टः भवति, विषादः नष्टः भवति खलु. यथा तत्र रामः उत्तमः इति वदामः, रामः उत्तमः, किन्तु पूर्णवाक्यम् अपेक्षितं चेत् रामः उत्तमः अस्ति इति वदामः. तादृशः विषादः नष्टः इति तावदेव दत्तमस्ति. विषादः नष्टः अस्ति अथवा भवति केन? गीतोपदेशेन. कस्य विषादः? अर्जुनस्य विषादः. विषादः अपि नष्टः, तयोः सम्बन्धः कः? विशेषणम् अस्ति, नष्टः इति विशेषणं, विषादः इति विशेष्यम्. समीचीनं भगिनि, अस्तु. अग्रे वेदा भगिनि.
महोदय, विश्वरूपदर्शनेन अर्जुनः विश्वरूपदर्शनेन अर्जुनः भीतः जातः. दर्शनेन अर्जुनः निश्चयेन भीतः जातः.
हा, प्रायशः तदपि वक्तुं शक्नुमः, प्रायशः भीतः जातः, तदपि समीचीनमेव भवति इति मन्ये, किन्तु हा समीचीनमेव भगिनि, निश्चयेन वा प्रायशः.
कर्तृपदम् अर्जुनः भीतः जातः विश्वरूपदर्शनेन तृतीया विभक्ति. भीतः जातः, भीतः
कः भीतः अस्ति, कः भीतः अस्ति?
अर्जुनः.
हा, अतः भीतः किम् अस्ति, कीदृशः अर्जुनः?
विशेषण विशेषं भीतः अर्जुनः.
हा, विशेषण. हा, भीतः अर्जुनः, भीतः जातः अर्जुनः.
जातः कृदन्तपदमस्ति वा? कृदन्तपदम्?
हा, तादृशपदम् अस्ति. हा, इदानीं न जानीमः रूपं, किन्तु जातः अपि अत्र विशेषणम् इति स्वीकुर्मः. जातः अपि, हा, अर्जुनः भीतः जातः अस्ति अथवा अभवत्, हा, अथवा अभवत् इति. अतः तत्र भीतः जातः द्वयमपि विशेषणम् अर्जुनः पदस्य. समीचीनं भगिनि, अस्तु. अग्रे नरेश महोदय.
आं महोदय, भगवद्गीता सर्वासु भाषासु अनूदिता अस्ति.
हा,
भगवद्गीता प्रायशः सर्वासु भाषासु अनूदिता अस्ति.
हा, प्रायशः. हा, तत्र सर्वासु भाषासु, तत्र भाषा, भाषा इति लताशब्दवत् भाषासु इति सप्तमी,
सप्तमी विभक्ति. बहुवचनं
बहुवचनं हा तत्र अनूदिता इत्युक्ते किम्
अनूदिता यस्य अन्यभाषा अनुवादनं करोति
हा अनुवादम् अनुवादं हा अतः अनूदिता इति रूपमस्ति तत्र भगवद्गीतायाः अनुवादनं तत्र हा सर्वासु भाषासु कृतम् इति प्रायशः वक्तुं शक्नुमः प्रायशः तत् सत्यमस्ति भगवद्गीतायाः अनुवादम् अथवा अनुवादनं सर्वासु भाषासु अस्ति इति अतः तत्र अनूदिता इत्युक्ते तस्य अनुवादनं कृतम् इति तस्याः अनुवादनं कृतम् इति अनूदिता अनूदिता इति पदस्य लिङ्गं किम्
स्त्रीलिङ्ग
हा किमर्थम् अनूदिता इति अस्ति आकारान्तस्त्रीलिङ्गपदं किन्तु किमर्थं स्त्रीलिङ्गम् अस्ति
भाषासु अपि
न भाषासु इति तत् श्रीलिङ्गमस्ति किन्तु तत्तु भिन्नवार्ता अस्ति किन्तु तत् अस्ति इति वाक्यं पश्यामः क्रियापदम् अस्ति क्रियापदम् अस्ति कर्तृपदम् भगवद्गीता इति अतः भगवद्गीता अस्ति भगवद्गीता अनूदिता अस्ति विशेषणम् अस्ति हा समीचीनं महोदय भगवद्गीता अनूदिता अस्ति कुत्र अनूदिता अस्ति सर्वासु भाषासु अनूदिता अस्ति एतत् सत्यं वा प्रायशः भगवद्गीता सर्वासु भाषासु अनूदिता अस्ति सर्वे अवगच्छन्ति वा प्रश्नः अस्ति वा अत्र अनूदिता इत्युक्ते किम् इति सर्वे जानन्ति अस्तु प्रश्नः नास्ति अस्तु अग्रे शोभा भगिनी अग्रे
आं महोदय अपेक्षया उपयुज्य वाक्यानि पठत उदाहरणं परधर्मस्य अपेक्षया स्वधर्मः श्रेष्ठः तत्र अपेक्षया इति अव्ययम् अतः पूर्वं षष्टिविभक्तौ परधर्मस्य इति पदं सर्वधर्मः श्रेष्ठः तत्र क्षम्यतां स्वधर्मः श्रेष्ठः इति तत्र अस्ति इति नास्ति क्रियापदं भवति श्रेष्ठः अस्ति इति श्रेष्ठः इति कर्तृपदं तत्र इति मन्ये महोदय
तत्र स्वधर्मः अस्ति कीदृशः स्वधर्मः
स्वधर्मः अस्ति अस्तु
स्वधर्मः अस्ति कीदृशः स्वधर्मः श्रेष्ठः अस्ति कस्य अपेक्षया परधर्मस्य अपेक्षया अतः तत्र अतः स्वधर्मं स्वधर्मस्य तदेव समीचीनं भगिनि हा अस्तु अग्रे
संख्यानुसारं भारतयुद्धे कौरवाणाम् अपि च पाण्डवाः अल्पाः आसन् कौरवाणाम् अपेक्षया पाण्डवाः अल्पाः आसन्
हा कौरवाणाम् इति पदस्य विभक्ति का तत्र
तत्र षष्टिविभक्ति बहुवचने
अपि च
अतः तत्र अपेक्षया इति अन्वयम् अव्ययम् आगच्छति इति कृत्वा पूर्वपदं षष्टिविभक्तौ अभवत्
समीचीनं भगिनि हा संख्यानुसारं तत्र संख्या यदि संख्यां पश्यामः ये जनाः कति जनाः
अनुसृत्य पश्यामः चेत् पाण्डवाः अल्पाः अल्पाः आसन् कौरवाणाम् अपेक्षया
तत्र पाण्डवाः अल्पाः
क्रियापदम्
पाण्डवाः अल्पाः कौरवाः तत्र किं वक्तुं शक्नुमः कौरवाः अधिकाः
अधिकाः अस्तु
अल्पाः अधिकाः इति
अत्र अल्पाः इति पाण्डवाः आसन् पाण्डवाः इति एव
कर्तृपदम् अल्पः किं भवति
विशेषणं
विशेषणं हा पाण्डवाः
अल्पाः आसन्
समीचीनं भगिनि हा अस्तु अग्रे ललिता भगिनि
महोदय अल्पः कीदृशपदं महोदय
अल्पः इत्युक्ते किं भगिनि कीदृशपदम् अकारान्तपदम्
अल्पः अल्पः अल्पौ अल्पाः
प्रायशः प्रायशः भगिनि द्रष्टव्यमस्ति इति मम चिन्तनं अहं सर्वदा मम चिन्तनम् एतदस्ति यदि तत्र रूपभेदं न पश्यामि साधारणपदम् इति अहं चिन्तयामि इदानीं तद् अस्ति न वा इति विचारः मास्तु भगिनि हा अल्पः इति
अल्पः अनन्तरम् अधिकः अधिकं
तत्र विशेषणं रूपेण विशेषणं विशेषणम् इति तत्र अल्पः अल्पा अल्पम्
अधिकः अपि च अधिकम् इति द्वे पदम् अस्ति द्वे पदानि अस्ति अस्ति वा महोदय
अधिकः इति तत्र विशेषणं भवति भगिनि तत्र जलम् अधिकम् अथवा किमपि अधिकः जनाः अधिकाः अथवा स्त्रीलिङ्गे अधिका इति अतः विशेषणरूपमपि अस्ति हा तत् हा अतः तत्र कौरवाः अधिकाः इति रूपं भवति इति मन्ये हा अस्तु भगिनि हा तत्र प्रायशः किमपि वक्तुं शक्नुमः किन्तु इदानीं मास्तु इति मन्ये भगिनि हा अस्तु अग्रे ललिता भगिनि
ब्रह्मध्यानस्य अपेक्षया भक्तिः सरला
हा ब्रह्मध्यानस्य अपेक्षया हा ब्रह्मध्यानमस्ति भक्तिः अस्ति किं कठिनं किं कठिनमस्ति
किं कठिनम् अपेक्षया भक्तिः कठिन न ब्रह्मध्यानस्य अपेक्षया भक्तिः सरला सो ब्रह्मध्यानम् इस् कठिनम्
हा ब्रह्मध्यानं कठिनम् अस्ति भक्तिः सरला अस्ति अस्तु भक्तिः सरला
अतः
सरला अतः सरला स्त्रीलिङ्गपदम् अस्ति स्त्रीलिङ्गरूपम्
ब्रह्मध्यानस्य षष्ठी विभक्ति
विभक्ति अस्ति समीचीनं भगिनि हा समीचीनम् अस्तु अग्रे गीताञ्जलि भगिनि गीताञ्जलि भगिनि अस्तु
आं महोदय क्षम्यता भक्तस्य
धार्मिकक्षम्यता
महोदय भक्तस्य धार्मिकविधीनां भावः श्रेष्ठः भक्तस्य धार्मिकविधीनां अपेक्षया भावः श्रेष्ठः
तत्र धार्मिक धार्मिक इति धर्मस्य विशेषणं तत्र धर्मस्य विषयः धार्मिक विशेषणं भवति धार्मिक विधि विधि इत्युक्ते नियमः
विधि नियमः अपि च
नियमः यत् कर्तव्यम् इति हा यत् कर्तव्यम् इति अतः तत्र धार्मिकविधीनां नियमानां धार्मिकनियमानाम् अपेक्षया भावः श्रेष्ठः तत्र भावः श्रेष्ठः इत्युक्ते तत्र केवलम् अस्तु नियमाः सन्ति तान् अनुसरामि अहं न जानामि अहं तस्य गौरवं न करणीयं वा इति न जानामि किन्तु करोमि इति तादृशः न तत्र भावः श्रेष्ठः इति
केवलं सर्वदा भावेन करणीयमेव
तत्र गौरवभावेन इति तत्र भावः येन भावेन वयं सर्वं कुर्मः तदपि तस्यापि गणनं भवति इति केवलं केवलम् एतत् कृतम् इति न, अस्तु सर्वं यत् विधिवत् अहं कृतवान् अथवा कृतवती इति तादृशचिन्तनं मास्तु, किन्तु हा तत्र भावः अपि हा तस्य अपि गणनं भवति इति. हा अस्तु, तत्र केवलं वाक्यद्वयम् अस्ति, तत् कृत्वा समापयामः.
द्वयोः अपेक्षया भावः श्रेष्ठः.
हा सत्यं सत्यं भगिनि, हा तत्र द्वयमस्ति तत्र, किन्तु तयोः मध्ये भावः श्रेष्ठः. हा अस्तु, रघुवीरानन्दमहोदय अग्रे.
महोदय द्वयोः किमस्ति?
द्वयोः तत्र द्वयोः इति इत्युक्ते तत्र भावः एकः, धार्मिकविधिः इति अन्यः, विधिः इति अन्यः, तयोः मध्ये भावः श्रेष्ठः.
अकर्मणः अपेक्षया कर्मकरणं श्रेयस्करम्. तत्र अकर्मणः यः कर्म न करोति तस्य अपेक्षया यः कर्म करोति सः श्रेयः.
हा तत्र अकर्मणः अकर्मणः इति षष्ठी भवति कर्मपदं, तत्र कर्म नकारान्तपदं कर्म, नपुंसकलिङ्गपदम् अकर्मणः इति तत्र षष्ठीविभक्तिरूपं. समीचीनं महोदय, तत्र तस्य अपेक्षया कर्मकरणं श्रेयस्करं. हा अस्तु समीचीनम्. अस्तु अग्रे वंशी सदा भगिनि.
आं महोदय, कर्मसन्न्यासस्य अपेक्षया कर्मयोगः विशिष्टः. इत्युक्ते कर्मसन्न्यासम् इत्युक्ते कर्म त्यक्तवान् यः,
कर्म मास्तु इति, तत्र अहं किमपि न करोमि इति यः त्यजति तस्य अपेक्षया कर्मयोगः,
कर्मयोगयुक्तः यः करोति सः कर्मयोगी इति वक्तुं शक्यते.
हा तत्र हा यः कर्म करोति तत्र कर्मयोगः अनुसरति सः विशिष्यते. हा समीचीनं भगिनि. अस्तु अन्तिमं किम् अस्ति तत्र, द्रव्ययज्ञस्य अपेक्षया ज्ञानयज्ञः श्रेष्ठः भवति इत्युक्ते तत्र ज्ञानस्य योगः, योगः इति होमः इति रूपं स्वीकृतमस्ति, तत्र यज्ञः इति द्रव्येण होमं सर्वे कुर्वन्ति, तस्य अपेक्षया ज्ञानेन होमं यदि कर्तुं शक्नुमः तादृशहोमं श्रेष्ठं भवति इति. तावदेव अस्तु, अहं वदामि तावदेव इति, किन्तु तत्र बहु किमपि अस्ति, किन्तु वाक्यस्य अपेक्षया इति पदं तत्र कथं भवति इति तावदेव अस्माकं विषयः. अस्तु तर्हि समयः अपि जातः, तत्र रघुवीरानन्दस्वामीजी तत्र अन्ते तत्र शान्तिमन्त्रं वदति वा, तदनन्तरं समापयामः.
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. हरिः ओम्, गुरुभ्यो नमः. हरिः ओम्, नमस्कारः, धन्यवादः.
धन्यवादः सर्वेषां, सर्वेभ्यो नमः, धन्यवादः, नमस्कारः. अग्रिमवर्गे मिलामः.
धन्यवादः
नमस्कारः.
धन्यवादः महोदय, नमस्कारः.
धन्यवादः, नमस्कारः, नमस्कारः.